सर्वेषां संस्कृतकक्षायां स्वागतम्. प्रथमम् अहम् एकं नूतनं सुभाषितं श्रावयामि. न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी. ये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्. विद्याधनं सर्वधनप्रधानम् इत्युक्ते विद्याधनं. नमस्कारः महोदय, स्वागतं.
नमस्कारः.
विद्याधनं सर्वधनप्रधानं. विद्याधनं अग्रगण्यं, वरिष्ठम्, उत्कृष्टं, श्रेष्ठम् इति वक्तुं शक्नुमः. एका सूक्तिः अस्ति, भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा. इत्युक्ते भारतस्य प्रतिष्ठा अस्ति संस्कृते अपि च संस्कृत्याम् अपि च संस्कृतं संस्कृते. इत्युक्ते संस्कृतम् अपि च अस्माकं भारतीयसंस्कृतिः विशिष्टा, द्वे अपि विशिष्टे. अतः अहं चिन्तयामि तदर्थमेव वयं सर्वे संस्कृतम् अद्य पठामः अत्र. परन्तु एतत् सुभाषितं वदति विद्याधनं सर्वधनप्रधानम्. अनन्तरम् अत्र गृहपाठरूपेण गतसप्ताहे अहं किञ्चित् दत्तवती, तत् किमिति अधुना वयं पश्येम. अत्र दीपिका भगिनी, भवती गतसप्ताहे आगतवती वा अस्माकं कक्षायां?
भगिनी,
गतसप्ताहे भवती आगतवती वा? द्विजुकम्
अहं न आगतवती, परन्तु अहं ध्वनिमुद्रणं श्रुतवती.
श्रुतवती. अत्र गत गुरुवासरे अहं किञ्चित् गृहपाठं दत्तवती. गृहपाठरूपेण तत्र अभ्यासद्वयं दत्तवती. वयं कस्मिन् पुटे स्मः तदा? कः वदति? गृहपाठः कस्मिन् विषये, कस्मिन् पुटे अस्ति?
अष्टमपुटे.
न महोदय, गुरुवासर छात्राणां कृते पञ्चमे पुटे, पञ्चमे पुटे स्मः वयं. गुरुवासर छात्राणां कृते पञ्चमपुटात् अहं गृहपाठं दत्तवती. किञ्चित् कालं वयं पञ्चमपुटं प्रति गच्छेम, तत्र अभ्यासं कुर्मः. अत्र प्रथमतया वंशीसुधा भगिनी, अत्र पञ्चमे पुटे किम् अस्ति?
पुनर्वारेकवारं वदतु भगिनी, किञ्चित् वैकल्पम् अस्ति.
पञ्चमे पुटे किम् अस्ति इति किञ्चित् पश्येम.
पञ्चमपुटे किं किं वदामि भगिनि? ओ या ऋ.
अत्र अहं अत्र पश्यतु भगिनी, अत्र पञ्चमे पुटे कानिचन पदानि सन्ति. अत्र प्रत्येकस्मिन् पदस्य पुरतः सर्वनामपदं योजयित्वा वाक्यं रचयामः.
सः रामः, सः ग्रन्थः, सः श्लोकः.
भगिनी भगिनी भगिनी, तथा न, प्रथमं रामः, अनन्तरं सीता, अनन्तरं पुस्तकं, तथा वदतु.
आम् आं भगिनि, सः रामः, सा सीता, तत् पुस्तकं. रामः पुल्लिङ्गशब्दं, सीता स्त्रीलिङ्गशब्दं, पुस्तकं नपुंसकलिङ्गशब्दम्.
उत्तमं. सः प्रथमतया पश्यतु, प्रथमतया सः कः अथवा सः कः इति प्रश्नवाचक वाक्यं रचयतु, अनन्तरं तस्य उत्तरमपि ददातु.
आम् आम् सः कः सः रामः सा का सा सीता तत् किं तत् पुस्तकम्
उत्तमं द्वितीयमपि करोतु
सः कः सः ग्रन्थः सा का सा घटी तत् किं तत् पुष्पम्
उत्तमम् उत्तमं भगिनि धन्यवादः
धन्यवादः
तथा एव अनन्तरं सतीश् महोदय भवान् कर्तुम् इच्छति वा
श्लोक एतत् श्लोकः सा बालिका
महोदय एकं पश्यतु अत्र एषः कः सः कः इति प्रश्नः
ओ ओके सोरि ओके एषः कः एषः कः एतत् श्लोकः
अत्र अत्र पश्यतु अत्र एका सूचना अस्ति सूचना का इत्युक्ते पुंलिङ्गशब्दतः पूर्वं सा इत्येव अत्र सूचना अस्ति प्रथमं सूचनां पठित्वा अत्र अभ्यासः करणीयः पुंलिङ्गशब्दतः पूर्वं सः इत्येव लेखनीयं स्त्रीलिङ्गशब्दतः पूर्वं सा इत्येव लेखनीयं नपुंसकलिङ्गशब्दतः पूर्वं तत् इत्येव लेखनीयं तदेव सा एव सूचना सूचनानुसारं कुर्मः
एषः कः एषः श्लोकः सा कः सा का सा बालिका एतत् वस्त्रम्
तथा एव अनन्तरं शोभा भगिनी भवती करोति वा
आं भगिनि सः कः सः दर्पणः सा का सा लता तत् किं तत् गृहम्
उत्तमम् अनन्तरं करोतु
सः कः सः विद्युद्दीपः सा का सा सञ्चिका तत् किं तत् चित्रम्
उत्तमम् अत्र पश्यतु भवती पश्यति वा सञ्चिका इति पदं कथं लिखितमस्ति तथा एव लेखनीयं तत्र मकारः वा अनुस्वारः मकारः अथवा अनुस्वारः श्रूयते परन्तु मकारं वा अनुस्वारः वा न लिखितमस्ति तत्र केवलं चवर्गीय पञ्चमव्यञ्जनं लिखितमस्ति इत्युक्ते चवर्गे चाच्छा जाच्छा इणि पञ्चवर्णानि सन्ति चवर्गे अन्तिमवर्णः इणि इति वदामः तस्य नाम अस्ति अनुनासिकव्यञ्जनम् अनुनासिकव्यञ्जनम् इत्युक्ते वर्णस्य उच्चारणं केवलं नासिकया उच्चारयामः वायुः नासिकया आगच्छति तदर्थमेव अनुनासिकव्यञ्जनम् इति वदामः पञ्चमवर्णः अनुनासिकवर्णः पञ्चमव्यञ्जनम् अनुनासिकव्यञ्जनं तदर्थमेव अत्र इणि इति प्रथमं लिखित्वा अनन्तरं चकारः लेखनीयः तदर्थमेव तत्र सञ्चिका इति तत्र लेखनशैल्यां वैशिष्ट्यमस्ति तत्तु अवगन्तव्यः यु नीड् टु अण्डर्स्टाण्ड् हौ इट् शुड् बि रिटन् विलम्बेन केन अपि आगतं वा डिड् एनिबडि कम् लेट् अत्र सञ्चिका तथा एव लेखनीयं परिशीलयन्तु
पुनः पुनः प्रनौन्सियेशन् कृपया करोतु भगिनि सञ्चिका
अनन्तरम् अत्र विद्युद्दीपः इति पदमस्ति विद्युद्दीपः इत्यस्मिन् पदद्वयमस्ति विद्युत् अपि च दीपः अतः समस्तपदम् इति वदामः शङ्करन् महोदय कृपया म्यूट् करोतु. कृपया म्यूट् करोतु, बहु ध्वनिः अस्ति. उत्तमं महोदय, तथा एव भगिनि अनन्तरम् अग्रिममपि करोतु भगिनि.
सः कः? सः गजः. सा का? सा लेखनी. तत् किं? तत् पत्रम्.
उत्तमं, तथा एव उत्तमं भगिनि, धन्यवादः. सर्वनामपदं पुरतः स्थापयित्वा इदानीं पर्यन्तं वयं कानिचन वाक्यानि रचितवन्तः. वयम् अत्र यदि वयं एषः रामः, एषा सीता, एतत् पुस्तकम् अथवा सः रामः, सा सीता, तत् पुस्तकम् इति वदामश्चेत् अत्र पूर्वं नामपदस्य पुरतः सर्वनामपदं योजयामः. अत्र सर्वनामपदं नामपदस्य कृते विशेषणम् इव कार्यं करोति. दट् मीन्स् हियर् वि आर् आल् यूसिङ्ग् द प्रोनौन् इन् फ्रण्ट् आफ् द नौन्, बट् दट् प्रोनौन् इस् आक्टिङ्ग् एस् एड्जेक्टिव्. That is the key point here. एषः मुख्यबिन्दुः. तदर्थमेव यदि अहं पृच्छामि भगिनि, भवतीमेव पृच्छामि, सा का इति पृच्छामि चेत् सा लेखनी इति वदामः. का लेखनी वदतु? सा लेखनी. तदर्थमेव इत्युक्ते तत्र सा इति सर्वनामपदं विशेषणरूपेण प्रयुक्तमस्ति. अनन्तरम् अग्रे गच्छेम. अधुना उभागे किमस्ति इदानीं पश्येम. धन्यवादः भगिनि. दीपिका भगिनी, भवती करोति वा?
उभागः वा ऋभागः वा?
पुनः वदतु. द्वे अपि करोतु. प्रथमम् उभागतः आरभ्य कुर्मः. उभागे किम् अस्ति?
रिक्तस्थलानि. एषः, एषा, एतत्, कः, का, किम्, एतेषु उचितरूपेण पूरयतु.
अवगच्छति वा?
आम्.
सूचनाका इति अवगच्छति वा?
आम्. रिक्तस्थाने एतेषु के अपि लिखनीयम्. एषः, एषा, एतत्, कः, का, किम्.
एतेषु अन्यतमं पदम् उपयुज्य वाक्यं लेखनीयं. वदतु.
सः रामः, सा सीता, तत् पुस्तकम्. एषः ग्रन्थः, एषा घटी, एतत् पुस्तक, एतत् पुष्पम्. कः श्लोकः? का बालिका? का वस्त्रम्? सः दर्पणः, सा लता, तत् गृहम्.
उत्तमम्. अत्र भगिनि अत्र करोतु. तदेव.
एषः विद्युद्दीपः, एषा सञ्चिका, एतत् चित्रम्. कः गजः? का लेखनी? किं पत्रम्?
उत्तमम्, उत्तमम्. इत्युक्ते इदानीं पर्यन्तं वयं जानीमः यदि पदस्य अन्ते मकारः वा अनुस्वारः वा अस्ति. धन्यवादः भगिनी, कृपया म्यूट् करोतु. इदानीं पर्यन्तं वयं जानीमः. यदि पदस्य अन्ते विसर्गः अस्ति चेत् पुंलिङ्गपदं, पदस्य अन्ते दीर्घ आकारः वा यथा सीता, दीर्घ ईकारः वा यथा घटी, लेखनी अस्ति चेत् स्त्रीलिङ्गपदम्. यदि पदस्य अन्ते अनुस्वारः वा मकारः वा यथा पुस्तकम् अस्ति चेत् वयं जानीमः नपुंसकलिङ्गपदम् इति वयं जानीमः. अधुना वयं अनन्तरं पदस्य पुरतः सर्वनामपदं योजयित्वा कथं वाक्यं लेखनीयम् इत्यपि वयं जानीमः. अद्य वयं अग्रे गच्छेम. षष्ठे पुटे किम् अस्ति? षष्ठे पुटे वंशी सुधा भगिनी भवती करोति वा?
वदतु भगिनि.
षष्ठे पुटे किम् अस्ति? प्रथमं शीर्षिकां पठतु.
शीर्षिकायाम् एव नित्योपयोगिनी वस्तूनि
इत्युक्ते किम्? अत्र वदतु.
नित्य उपयोगवस्तूनि, दट् मीन्स् द डेलि ऐटम्स् विच् वि यूस्.
तदेव, तावदेव. इत्युक्ते नित्योपयोगिनी वस्तूनि इत्युक्ते एतेषां वस्तूनाम् उपयोगः नित्यं भवति, सर्वदा तेषाम् उपयोगः वयं कुर्मः. अतः एव नित्योपयोगीनि वस्तूनि इति शीर्षिका दत्ता. अत्र नित्योपयोगीनि इति पदं विशेषणं, वस्तूनि इति पदं नामपदं, नामपदस्य वर्णनं करोति. वस्तूनि इति पदं नामपदं, तस्य वर्णनं करोति विशेषणं. अत्र नित्योपयोगीनि इति पदं नामपदस्य वर्णनं करोति. अनन्तरं तत्रापि नित्य उपयोगीनि तथा पदद्वयमस्ति, तस्मिन् पदे अपि समासः अस्ति. अनन्तरम् अस्मिन् पुटे कति वस्तूनि सन्ति भवती गणितवती वा? इत्युक्ते गणनां विंशतिः वस्तूनि सन्ति. अनन्तरं अत्रापि भवती अभिज्ञातुं शक्नोति वा किं पदं पुंलिङ्गपदं, किं नपुंसकलिङ्गपदं, किं स्त्रीलिङ्गपदं?
किञ्चित् प्रयत्नं करोमि.
करोतु.
दर्पणः पुंलिङ्गः.
तथा एव यथावत् पूर्वं भवती अत्रापि त्रीणि वाक्यानि रचयितुं शक्नोति.
अस्तु भगिनि. दर्पणः पुंलिङ्गः, स्त्रीलिङ्गः जवनिका, नपुंसकलिङ्गं
भगिनि तथा नास्ति. अद्य वयं किं कुर्मः इत्युक्ते प्रथमं चित्रं पश्यतु. प्रथमं चित्रं भवती एव एषः कः इति प्रश्नं पृच्छतु प्रथमम्. अनन्तरम् एषः दर्पणः.
अस्तु भगिनि. एषः कः अथवा सः कः? एषः दर्पणः, सः दर्पणः, पुल्लिङ्गशब्दः.
सः दर्पणः. यदि यदि भवती जानाति चेत् दर्पणः इति पदम् उपयुज्य अन्यत् वाक्यं रचयतु, कर्तुं शक्नोति चेत्.
नित्यम् अहं दर्पणं पश्यामि, दर्पणः पश्यामि.
अत्र पश्यामि इति क्रियापदं, पश्यतु भगिनि. अत्र दर्पणः इति पुंलिङ्गपदम् अपि च एकवचनम् अपि च प्रथमाविभक्तौ अस्ति. परन्तु यदि भवती दर्पणं पश्या उत्तमं. किमर्थं तथा? तत्र तस्मिन् वाक्ये दर्पणः इति पदस्य द्वितीयाविभक्तिरूपं योजयामः. तदर्थमेव अहं नित्यं दर्पणं पश्यामि. अहं भवती एकं वाक्यम् उक्तवती, अहमपि एकं वाक्यं वदामि. प्रतिदिनं वयं दर्पणस्य पुरतः उपविश्य आभरणानि धरामः, केशप्रसाधनं कुर्मः, अपि च महिलाः दर्पणस्य पुरतः उपविश्य अलङ्कुर्वन्ति. तथा नित्यं तस्य उपयोगः भवति दर्पणस्य. उत्तमं भगिनि.
अस्तु अस्तु, धन्यवादः भगिनि.
रघुपति आचार्यमहोदय, भवान् द्वितीयं कर्तुम् इच्छति वा?
आं भगिनि. एषः कः? एषः मञ्चः. सः कः? सः मञ्चः.
सः किमर्थं महोदय, अत्र सः किमर्थं वदामः?
एतत् पुल्लिङ्गपदम् अस्ति, अतः एषः या सः इति वयं
शब्दम्
उपयोगं कुर्मः.
अत्र एषः कदा उपयोगः भवति, सः कदा?
एषः यदि यानि वस्तूनि मम समीपे अस्ति इति चेत् एषः इति शब्दम् उपयोगं करोमि. यदा यद् वस्तु दूरे सन्ति चेत् अस्ति चेत् सः इति शब्दम् उपयोगं करोमि.
उत्तमं, तदेव, तावदेव. भवान् मञ्चः इति पदम् उपयुज्य नूतनं वाक्यं, केवलम् एषः सः न, प्रयत्नं करोतु.
प्रयत्नं करोमि. अहम् इदानीं मञ्चस्य उपरि उपविश्य पाठं शृणन् अस्मि.
वाव्, उत्तमं वाक्यं, शृण्वन् अस्मि. तत्र शृण्वन् अस्मि इत्युक्ते शतान्तप्रयोगः. पुनः एकवारं वदतु, सर्वे शृण्वन्तु उत्तमं वाक्यम्.
अहम् इदानीं मञ्चस्य उपरि उपविश्य उपविश्य
पाठं
शृण्वन् अस्मि.
उत्तमं वाक्यं महोदय, धन्यवादः. तथा मञ्चस्य उपरि इति वक्तुं शक्नुमः, अथवा मञ्चे
उपविश्य.
तत्र मञ्चे इति सप्तमी विभक्तिः, मञ्चस्य उपरि षष्टिविभक्तेः उपयोगं तत्र भवति. उत्तमं महोदय. अनन्तरं विद्युद्दीपः इति पदम् उपयुज्य अपि यथावत् पूर्वं एषः कः तथा. महोदय, अहमपि एकं वाक्यं वदामि. मञ्चः इति पदम् उपयुज्य शिशुः मञ्चे निद्राति, अथवा रात्रिवेलायां मञ्चे निद्रां कुर्मः. अत्रापि मञ्चः इति पदं कथमस्ति इति पश्यतु. अत्र मञ्चः, अत्रापि चवर्गीयपञ्चमव्यञ्जनं लिखित्वा चकारं लेखनीयः. लिखयामः. अनन्तरं विद्युद्दीपः, वदतु महोदय.
विद्युद्दीपः, अहं भारते अस्मि, अतः इदानीम् अन्धकारः अस्ति, अतः अहं विद्युद्दीपस्य उपयोगं कृत्वा पाठं पठन् अस्मि.
उत्तमम्. अनन्तरं करदीपः इति पदम् उपयुज्य एषः कः? भवान् जानाति एव, केवलम् अभ्यासार्थम् अहम् अवगतवती, भवान् जानाति एव, परन्तु केवलं
सम्भाषणं नास्ति,
केवलं मौखिकाभ्यासार्थम् एव पृच्छामि. करदीपः इति पदम् उपयुज्य कानिचन वाक्यानि वदतु.
एषः कः? एषः करदीपः. सः कः सः करदीपः करदीपस्य उपयोगं कदा करदीपस्य उपयोगः कदा भवति करदस्य उपयोगः यदा अन्धकारः अस्ति तदा करदीपस्य उपयोगः भवति
उत्तमम् धन्यवादः महोदय
उपयोगः पुल्लिङ्ग उपयोगम् उपयोगः या उपयोगम्
तत्र महोदय उपयोगम् अपि पदमस्ति उपयोगः अस्ति परन्तु उपयोगः पुंलिङ्गपदम् अत्र एकं वदामि परन्तु इट्स् टु डीप् इन् टु द सब्जेक्ट् उपयोगः भवति इत्युक्ते तत्र भवति इत्यस्मिन् भूधातुः अस्ति भूधातुः कर्मपदं न स्वीकरोति इट् इस् टु अड्वान्स्ड् फर् यू बट् परन्तु ऐ एम् एक्स्प्लेनिङ्ग् भूधातुः कर्मपदं न स्वीकरोति अतः उपयोगः भवति इति वदामः उपयोगं कृत्वा क्रूधातुः कर्मपदं स्वीकरोति अतः उपयोगं कृत्वा इति वदामः तदेव तयोर्मध्ये भेदः धन्यवादः महोदय भूमा भगिनी भवती कर्तुम् इच्छति वा
क्षम्यतां
शङ्करन् महोदय भवान् कर्तुम् इच्छति वा
अवश्यं भगिनि
मण्डपः इति पदम्
एषः कः मण्डपः एषः मण्डपः सः मण्डपः सः मण्डपः
सः मण्डपः अथवा एषः मण्डपः अत्र एषः सः पद विशेषणम्
एषः मण्डपः अथवा सः मण्डपः
मण्डपः इति पदं
मण्डपस्य उपयोगं पूजागृहे उपयोगः
तस्य उपयोगः तस्य उपयोगः पूजागृहे भवति
भवति
अस्मिन् मण्डपे मूर्तिः अस्ति वा
परमेश्वरन् भगवान् ईशः अथवा माता पार्वती मण्डपे अस्ति
अत्र अहं किं पृच्छामि चेत् अस्मिन् मण्डपे स्वामिनः मूर्तिः अस्ति वा
अस्ति भगिनि
अस्मिन् मण्डपे इन् दिस्
मण्डपे
अत्र अस्मिन् मण्डपे स्वामिनः मूर्तिः नास्ति परन्तु साधारणतया देवालये मण्डपे स्वामिनः मूर्तिः साधारणतया साधारणतया स्वामिनः मूर्तिः भवति अत्र मण्डपः इति पदं पश्यतु महोदय मण्डपः इत्यस्मिन् पदे अपि लेखनशैल्यां वैशिष्ट्यमस्ति अत्र मण्डपः इत्यस्मिन् णकारः अस्ति अणकारः इत्युक्ते अण इति वदामः टवर्गीय अन्तिमव्यञ्जनमस्ति अत्र अनन्तरं डकारः अस्ति टवर्गीय अन्तिमव्यञ्जनं णकारः तस्य नाम अस्ति मूर्धन्य णकारः मूर्धन्यणकारः इति वदामः. अत्र पादत्राणम् इति पदमस्ति. पादत्राणम् इति पदे अत्र णकारः अस्ति, तस्य नाम मूर्धन्यणकारः. अत्र यानपेटिका, जवनिका, वातायनम् इत्यस्मिन् एतेषु पदेषु अपि नकारः अस्ति, परन्तु तस्य नाम अस्ति दन्त्यनकारः. वातायनं, जवनिका, यानपेटिका, तत्र नकारः नकारः अस्ति, तस्य नाम दन्त्यनकारः, परन्तु एषः एतस्य नाम मूर्धन्यणकारः.
तकारस्य पञ्चम अक्षरं व्यञ्जनं
तवर्गीयपञ्चमव्यञ्जनं दन्त्यनकारः. तवर्गीय तवर्गीयपञ्चमव्यञ्जनं मूर्धन्यणकारः तथा एव. अनन्तरं पादत्राणम् इत्यपि उपयुज्य कानिचन वाक्यानि वदतु.
पादद्राणम् एतत् पादद्राणम् पादद्राणस्य उपयोगम्
एतत् किम् एतत् किम् अथवा तत् किम्
एतत् किम् एतत् पादद्राणम् अथवा तत् पादद्राणम्
तत् पादत्राणम् उत्तमम्. पादत्राणम् इति पदम् उपयुज्य एकं वाक्यं वदतु, अन्यत् वाक्यं.
पादत्राणस्य उपयोगं मां पादौ रक्षामि.
तदेव इत्युक्ते अत्र त्राणम् इत्युक्ते रक्षणं, पादयोः रक्षणं करोति. पादयोः रक्षणम् अत्र त्राणम् इत्युक्ते रक्षणं. तदर्थमेव वयं जानीमः विष्णोः अथवा देवस्य अन्यनाम अस्ति आर्तत्राणपरायणः. आर्तत्राणपरायणः इत्युक्ते आर्तानां रक्षणं करोति देवः. तदर्थमेव त्राणम् इत्युक्ते रक्षणम्. अत्र पादत्राणं पादानाम् अथवा पादयोः रक्षणं करोति. अनन्तरं पादयोः षष्टिविभक्ति द्विवचनं. अहं कथं चलामि? पादाभ्यां चलामि. हौ डु ऐ वाक्? ऐ वाक् वित् मै टु फुट्, रैट्? तदर्थमेव तत्र द्विवचनम् उपयुज्य वाक्यं रचयामः. अहं पादाभ्यां चलामि. अत्र पादत्राणम् अपि समस्तपदं. पादत्राणम् एकवचनं, बहुवचनं वक्तुं शक्नोति वा? उत्तमं महोदय, सतीश् महोदय, धन्यवादः. पादत्राणम् एकवचनं, पादत्राणे द्विवचनं, पादत्राणानि बहुवचनं. अनन्तरं धन्यवादः महोदय, कृपया म्यूट् करोतु. अनन्तरं दीपिका, सुचित्रा भगिनी इदानीं पर्यन्तं न उक्तवती. सुचित्रा भगिनी भवती करोति वा? भगिनी सुचित्रा भगिनी भगिनी
सारी भगिनी
करोतु.
तत्
कङ्कतं
किं तत् कङ्कतं तत् किं तत् कङ्कतम्
एतत् किम्
एतत् कङ्कतम् एतत् किम् एतत् कङ्कतम् अहं कङ्कतम् उपयोगं मम केशणं सीवयानम् अस्मि.
कथं वक्तव्यम् इत्युक्ते अत्र अहं चिन्तयामि भवती जानाति एव तत् एतत् तयोर्मध्ये भेदः कः जानाति वा.
तत् दट् तवो दूर् है एतत् जवो पास है
उत्तमं
वस्तु पास है
इत्युक्ते तत् इत्युक्ते दूरे अस्ति चेत् तत् समीपे अस्ति चेत् एतत् भवती जानाति एव. अनन्तरम् अत्र कङ्कतम् उपयुज्य वयं किं कुर्मः प्रतिनित्यं कङ्कतेन वयं केशप्रसाधनं कुर्मः. अहं नित्यं कङ्कतेन केशप्रसाधनं करोमि. प्रसाधनम् इत्युक्ते कोम्बिङ्ग् केशप्रसाधनं करोमि कङ्कतेन अथवा कङ्कतम् उपयुज्य केशप्रसाधनं करोमि. उत्तमम्. अनन्तरं भावचित्रं वदतु.
तत् किं तत् भावचित्रम् एतत् किम् एतत् भावचित्रं तत् भावचित्रं गान्धीजी पर तत् गान्धीजी भावचित्रम्
अत्र पश्यतु भगिनि. एतत् अथवा तत् तत् भावचित्रं गान्धीमहोदयायाः भावचित्रम् भगिनि क्षम्यतां गान्धीमहोदयस्य
एतत् भावचित्रं गान्धीमहोदयस्य भावचित्रं
प्रश्नः कः तस्य कृते प्रश्नः कः कस्य भावचित्रम् एतत् एतत् कस्य भावचित्रम् कस्य भावचित्रम्
एतत् गान्धीमहोदयस्य भावचित्रम्
उत्तमं तथा वक्तव्यं गान्धीमहोदयः पुंलिङ्गपदम् अतः एतत् भावचित्रम् अपि च गान्धीमहोदयस्य भावचित्रम् भवत्याः गृहे भावचित्राणि सन्ति वा.
मम गृहे मम कुटुम्बे कुटुम्बस्य भावचित्रं सन्ति.
कुटुम्बस्य भावचित्रम् अस्ति किमर्थम् अस्ति भावचित्रम् अस्ति भावचित्राणि सन्ति. अनन्तरम् अत्र भावचित्रम् उत्पीठिकायाः उपरि अस्ति. इट् इस् आन् द टेबल्. अनन्तरं किमर्थं वयं भावचित्रम् इति वदामः भावचित्रं किमर्थं तथा अहं चिन्तयामि यदि केवलम् अत्र चित्रस्य दर्शनेन एव अस्माकं मनसि काचन भावनाः उत्पद्यन्ते जस्ट् बै सिम्प्ली लुकिङ्ग् एट् द पिक्चर् यु विल् गेट् सम् फीलिङ्ग्स्. संस्कृतभाषायां फीलिङ्ग्स् इत्युक्ते भावना तदर्थमेव अस्य नाम भावचित्रम् इति वदामः. दर्शनेन अस्माकं मनसि भावना समुपजायते. यु इट् विल् क्रियेट् सम् फीलिङ्ग्स् इन् यू that is the reason it was named like bhavachitram. Uttamam. Anantaram sivanayantram bhavati kartum icchati va
tat kim tat sivayantram
bhagini atra sivanayantram
sivanayantram tat kim tat sivanayantram sivanayantram उत्पीठिकायाम् अस्ति.
उत्तमम्. उत्पीठिकायाम् अस्ति. उत्पीठिकायां सप्तमी विभक्तिः. उत्पीठिका इति पदम् आकारान्तस्त्रीलिङ्गपदम्. उत्पीठिकायां सप्तमी. उत्तमम्. उत्तमं भगिनि. अनन्तरं सीवनयन्त्रम् उपयुज्य किं कुर्मः?
सीवनयन्त्रम् उपयोगं वस्तु
अहं किञ्चित् वदतु अथवा अहं किञ्चित्
सीवयति. तत् सीवयन्त्रं सीवनयन्त्रं वस्तु सीवयति उपयोगं कुर्मः.
अत्र पश्यतु, सीवनयन्त्रं सीव्यति, तत्र क्रियापदमस्ति सीव्यति, न तु सीवयति.
सीवयति,
इट् इस् नाट् सीवयति, इट् इस् सीव्यति.
सीव्यति, ओके,
सीव्यति. उत्तमम्. अत्र अहं कानिचन वाक्यानि वदामि. सीवनयन्त्रेण वस्त्राणि सीव्यति. कः सीव्यति? हू स्टिचेस्?
टेलर्.
टेलर् टेलर् इत्युक्ते संस्कृतभाषा. टेलर् इत्युक्ते
सौचकः.
सौचिकः. सौचिकः सीवनयन्त्रेण वस्त्रं सीव्यति. सौचिकः प्रथमतया वस्त्रं कर्तयति. कर्तरीम् उपयुज्य वस्त्रं कर्तयति. अनन्तरं वस्त्रं सीव्यति. अहं प्रश्नं पृच्छामि, कः सीव्यति?
वस्त्राणि सीव्यति.
कः सीव्यति? अण्ड् हू स्टिचेस्? सौचिकः. एकवचनं सौचिकाः
वस्त्रं
सीव्यति. किं सीव्यति?
वस्त्रं सीव्यति. सीव्यति
किं? सौचिकः किं करोति?
सौचिका वस्त्रं सीवयति.
उत्तमम्. तथा एव तावदेव. अनन्तरम् उत्तमं भगिनि. सतीश् महोदय, भवान् करोति वा अनन्तरं?
एतत् किम्? एतत् वातायनं. एतत् किम्? एतत् वातायनं. वातायनं वातन.
अनन्तरं तत् किम् अपि वदतु.
तत् किं? तत् किं? तत् वातायनं.
तत् वातायनं. अन्यत् वाक्यं रचयतु.
अहं वातायनं वातायनं साकं स्थित्वा अहं पुस्तकं पठामि.
उत्तमं.
वातायनं प्रकाशं ददाति.
प्रकाशं ददाति. उत्तमं. अत्र पश्यन्तु सर्वे, महोदयः साकम् इति पदम् उपयोगं कृतवान्. साकम् इत्युक्ते समीपे. सः तथा सः. उत्तमं महोदय. अत्र अहं अत्र भवतः गृहे प्रकोष्ठाः सन्ति वा? प्रकोष्ठः इत्युक्ते रूम्.
rooms.
भवतः गृहे प्रकोष्ठाः सन्ति वा? आं, मम गृहे प्रकोष्ठाः सन्ति इति उत्तरं, तस्य उत्तरं. यदि प्रकोष्ठः अस्ति चेत् प्रत्येकस्मिन् प्रकोष्ठे वातायनानि सन्ति. वातायनम् एकवचनं, वातायनानि बहुवचनं. भवतः प्रकोष्ठे कति वातायनानि सन्ति? हौ मेनि विण्डोस् आर् देर् इन् युवर् रूम्?
मम कोष्ठे द्वौ वातायनानि, द्वौ वातायनानि
सः उत्तमं. तत्र तथा अपि वक्तुं शक्नुमः, अन्यत् सः अत्र अत्र पश्यन्तु, महोदयस्य प्रकोष्ठे वातायनद्वयमस्ति. केवलं शृणोतु महोदय, अत्र भवतः प्रकोष्ठे वातायनद्वयम् अस्ति, तथापि वक्तुं शक्नुमः. नास्ति चेत् भवतः प्रकोष्ठे द्वे वातायने स्तः. That is another way of saying. One way of saying is, mama prakoshthe vatayana dvayam asti. Ekaritya, tadha, ekaritya vadamaha. Anyatritya vaktumichhamas chet, mama prakoshthe dve vatayane staha. Ichukte atra dvivachanam upayujya vakyam rachayamaha. Dve iti padam. नपुंसकलिङ्गे द्विवचने, वातायने वातायनम् इति पदस्य द्विवचनरूपं द्वे, वातायने. अनन्तरम् अस्ति इति पदं क्रियापदं, वयं जानीमः अस्ति. अस्ति इति पदस्य द्विवचनरूपं स्तः, बहुवचनरूपं सन्ति. अस्ति, स्तः, सन्ति. यदा वयं पूर्वमेव जानीमः संस्कृतभाषायां पदानि त्रिषु लिङ्गेषु भवन्ति, त्रिषु वचनेषु, सप्तसु विभक्तिषु भवन्ति, अपि च क्रियापदानि अपि एकवचने, द्विवचने, बहुवचने सन्ति. अस्ति पदस्य द्विवचनरूपं स्तः, बहुवचनरूपं सन्ति. उत्तमं महोदय. अनन्तरं जवनिका, धन्यवादः महोदय. शोभा भगिनी भवती करोति वा?
आं भगिनि. सा का? सा जवनिका. एषा का? एषा जवनिका. जवनिका स्त्रीलिङ्गपदमस्ति. जवनिका वातयानम् उपरि उपयुज्य शक्नु.
उपयोगं वातायनस्य उपरि तस्याः उपयोगं
कुर्मः
इत्युक्ते किम? अत्र पश्यतु, कुर्मः इति पदं कथं तस्य उपयोगः भवति इत्युक्ते, अहं जवनिकायाः उपयोगं करोमि, वयं जवनिकायाः उपयोगं कुर्मः, तथा वक्तव्यं. किम् तत्र भेदः कः? अहम् एकवचनम्. अहं पठामि, वयं पठामः.
आं भगिनि,
तथा एव अत्रापि उपयोगं करोमि, उपयोगं वयम् उपयोगं कुर्मः. अत्र जवनिका कुत्र कुत्र दृश्यते? वेर् डु यू फैण्ड् द जवनिका? वेर् एल्स्? वातायनस्य उपरि,
द्वारे उपरि,
उपरि. अनन्तरम्?
अनन्तरं जवनिका
स्नानशालायां,
या शवर् कर्टन्.
अनन्तरं यदि नाट्यशालायाम् इत्युक्ते नाट्यमन्दिरेषु, नाट्यमन्दिरेषु किम् अस्ति अत्र कार्यक्रमस्य आरम्भे जवनिकायाः उद्घाटनं कुर्वन्ति
भगिनी. अत्र शब्दं आरङ्गेट्रम् इस् दट् फार् स्टेज्
नाट् आरङ्गेट्रं कार्यक्रमः आरङ्गेट्रम् इस् डिफ़्रेण्ट् ऐ बिलीव् आरङ्गेट्रम् मीन्स् इट् इस् द फस्ट् प्रोग्राम् गिवन् बै द पर्फार्मर् दट् इस् काल्ड् आरङ्गेट्रम् रङ्गप्रवेशम् that means it is the first performance given by that person.
Right.
Okay,
I just thought somewhere there it meant first pravesham on the ranga. So if I want to say ranga rangasya javanika upayujya
tathapi vaktum shakramah रङ्गस्थले तत्रापि जवनिकां जवनिका दृश्यते. यु केन् सी द जवनिका इन् रङ्गस्थलम् आल्सो. तथा तत्र किं भवति, साधारणतया कार्यक्रमस्य आरम्भे जवनिकायाः उद्घाटनं कुर्वन्ति. उद्घाटनम् इत्युक्ते ते ओपेन्. अनन्तरं तत्र निर्वाहकः वा केपि तत्र ते नाट्यं दर्शयन्ति, नाट्यं वा अथवा किमपि कार्यक्रमं दर्शयन्ति. तदेव तावदेव. अनन्तरं यानपेटिका उपयुज्य कानिचन वाक्यानि वदतु.
सा का सा यानपेटिका, एषा का एषा यानपेटिका, वयं यानपेटिकायाः not yaha, that is plural, it's not yanapetikasya
bhagini atra pasyatu yanapetikayaha iti shashti vibhakteh rupam kevalam prathama vibhakte ekavachanam vaktum icchati chet yanapetika iti padasya bahuvachana rupam yanapetikah ichukte atra bhedah asti bhavati parishilayatu atra यानपेटिका यानपेटिकाः परन्तु यानपेटिकायाः
यानपेटिकायाः
यानपेटिकायाः इत्युक्ते षष्टिविभक्तेः एकवचनरूपं
षष्टिविभक्ति एकवचनरूपं
केवलं यानपेटिकाः वदति चेत् प्रथमाविभक्ति बहुवचनरूपं
बहुवचनं
करोतु.
यानपेटिकायाः प्रयाणं, वयं यानपेटिकायाः प्रयाणं कुर्मः
यानपेटिका तथा न वक्तव्यं. यानपेटिकया तत्र कथं वक्तव्यम् इत्युक्ते यानपेटिकया सह वित् इत्युक्ते अत्र संस्कृतभाषायां वित् इत्युक्ते तृतीयविभक्ति. यानपेटिकया सह यानपेटिकया सह प्रयाणं करोमि
वयं
अथवा अथवा यथा सतीशमहोदयः उक्तवान् यानपेटिकया साकं साकमित्युक्ते अपि सः एव यानपेटिकया साकं प्रयाणं करोमि. तत्र तृतीयाविभक्तेः उपयोगं कुर्मः. अवगच्छति वा? यदि यानपेटिकयां किं किं वस्तूनि कानि कानि वस्तूनि स्थापयामः यानपेटिकायां
वस्त्रूणि, प्रवासवस्तूनि,
वस्त्राणि,
प्रवासवस्तूनि, Shaktu, how do I use it, Bhagini? We can put these things in there. Shaknum.
Tatra, aham sthapayami, athava
vayam
sthapayitum, vayam sthapayitum shaknumaha.
Sthapayitum shaknumaha.
We can keep it. Otherwise, I keep. Aham yanapetika, aham yanapetikayam, vastuni, vastrani, pravasa vastuni, vastrani, dhanam, sthapayami. Adhava, vayam yanapetikayam, sarvani vastuni, sthapayitum shaknumaha. Tavadeva. Tadeva, that's what you wanted to say?
I wanted to say that we can put using shaknum.
Shaknum. That is shaknomi.
Shaknomi.
Aham karyam kartum shaknomi. Athava bahuvachane vaktum icchati chet vayam karyam kartum shaknumaha.
Shaknumaha.
अहं कार्यं कर्तुं शक्नोमि वयं सर्वे मिलित्वा कार्यं कर्तुं शक्नुमः वी आल् केन् डु इट् अवगच्छति वा अहं कार्यं कर्तुं शक्नोमि वयं कार्यं कर्तुं शक्नुमः
भगिनी somebody is coughing can they please mute
Can some, like somebody is coughing, Krupaya mute kurvantu. Uttam. Anantram, dhanyavadaha bhagini. Anantram nidhanika iti padam upayujya kaha vaktum icchati. Raghupati acharya bhavan karoti va.
Nidhanika, srilinga. Yesha ka, yesha nidhanika. Sa ka, sa nidhanika. मम गृहे एका निधानिका अस्ति तस्य तस्य तस्याः उपरि बहवः वस्तूनि अहं स्थापितवान्
आसन् उत्तमं वाक्यं पुनः वदतु सर्वे शृण्वन्तु उत्तमं वाक्यं पुनः वदतु महोदय
मम गृहे एका निधानिका अस्ति
मम गृहे
एका निधानिका अस्ति तस्य उपरि बहवः वस्तूनि अहं स्थापितवान् आसम्
बहवः वस्तूनि स्थापितवान् आसन् आसम् अत्र बहवः वस्तूनि स्थापितवान् क्तवतु प्रत्ययम् इति वदामः स्थापितवान् कृतवान् दत्तवान् पठितवान् भूतकाले तस्य उपयोगः भवति स्थापितवान् वदतु महोदय
किमिदं सम्भवं बहूनि वस्तूनि सन्ति किमिदं सम्यक्
बहु इति पदं विशेषणं यदि विशेषणमस्ति चेत् त्रिषु लिङ्गेषु तस्य उपयोगः भवति If it is an adjective, you can use it in all three lingas. Generally, adjectives can be used in all three genders. Yadha, aham vadami, atra sundara iti padam adjective. Sundara iti padam adjective, ataha, adjective ichukte visheshanam. Ataha, ramaha sundaraha. रामः सुन्दरः बालकः तथा वक्तव्यम्. अनन्तरं सीता सुन्दरी बालिका, सुन्दरी बालिका तथा तथा वक्तव्यम्. अत्र अनन्तरं पुष्पं, पुष्पं नपुंसकलिङ्गपदं, सुन्दरं पुष्पम् अस्ति, सुन्दरं वनम्, सुन्दरं गृहम्. अत्र लिङ्गम् अनुसृत्य, लिङ्गम् अनुसृत्य विशेषणम् उपयोगं कुर्मः. सुन्दरः सुन्दरः बालकः, सुन्दरी बालिका, सुन्दरं वनं, सुन्दरं पुष्पं तथा वक्तव्यं. तथा एव अत्र बहु इति पदम् अपि विशेषणं, तदर्थं बहु इति पदस्य उपयोगं पुंलिङ्गे भवति, स्त्रीलिङ्गे भवति, नपुंसकलिङ्गे अपि भवति. यदि नपुंसकलिङ्गे वदामश्चेत् बहूनि वस्तूनि, नपुंसकलिङ्गे वस्तुशब्दः नपुंसकलिङ्गं, वस्तुशब्दः एकवचनं, वस्तु वस्तु वस्तूनि वस्तूनि
धन्यवाद.
वस्तु वस्तूनि वस्तूनि तथा भवति. एकवचने वस्तु, बहुवचने वस्तूनि, द्विवचने वस्तूनि तथा भवति. उत्तमम्. अत्र
एकः सन्देहः अत्र
वदतु महोदय.
सुन्दरकाण्डं किं, सुन्दरकाण्डं
सुन्दरम्, अहं दृष्ट्वा वदामि महोदय. ऐ विल् एक्स्प्लेन् बिकास् ऐ डोण्ट् वाण्ट् टु एक्स्प्लेन् सम्थिङ्ग् राङ्ग्.
ओके, नो प्रोब्लम्, सारि.
दृष्ट्वा वदामि.
अवश्यम्, आं भगिनि.
वदतु महोदय. अनन्तरम् अत्र निधानिका, निधानिका इति पदम् उपयुज्य अत्र किञ्चित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. निधानिकायां वयं पुस्तकानि अथवा पाञ्चालिकाः वा अथवा भावचित्राणि वा स्थापयामः. निधानिका इत्युक्ते शेल्फ् अथवा शोकेस्, तस्यां पुस्तकानि अथवा भावचित्राणि वा स्थापयामः. अनन्तरं द्विचक्रिका, द्विचक्रिका इति पदमस्ति, द्विचक्रिकाम् उपयुज्य अन्यत् वाक्यं. कः वदति? वंशी सुधा भगिनी करोति वा? शीघ्रं कुर्मः.
आं भगिनि. सा का? सा द्विचक्रिका. एषा का? एषा द्विचक्रिका. वाक्यं वदामि भगिनि?
नूतनं वाक्यम्.
अहं द्विचक्रिकाया सह पाठशालां गच्छामि.
उत्तमं, पुनः वदतु.
अहं द्विचक्रिकाया सह पाठशालां गच्छामि.
अत्र उत्तमं वाक्यं. द्विचक्रिकया काया इति नास्ति, द्विचक्रिकया, द्विचक्रिकया तृतीयविभक्ति, द्विचक्रिकया सह पाठशालां गच्छामि. अथवा मम पुत्री एका नूतना द्विचक्रिका क्रीतवती. एषा मम नूतना द्विचक्रिका. एतां द्विचक्रिकां पश्यतु. एषा मम नूतना द्विचक्रिका तथा वक्तव्यम्. अनन्तरं पाञ्चालिका इति पदम् उपयुज्य वदतु.
एषा का? एषा पाञ्चालिका. शाका सा पाञ्चालिका श्रीलिङ्गपदं मम पुत्री मम पुत्री मम पुत्री मम पुत्री पार्श्वे बहूनि पाञ्चालि बहूनि बहवः उपयुज्य साधु एव भगिनी न बहूनि
अत्र अत्र पश्यतु भगिनि पुनः पुनः वाक्यं वाक्यं वदतु अहं किञ्चित् समीकरोमि
मम पुत्रिका पार्श्वे बहूनि पाञ्चालिका सन्ति
अत्र पश्यतु मम पुत्री पुत्री इति पदं यथा नदी अथवा गौरी अथवा लेखनी इव ईकारान्तपदं मम मम पुत्र्याः
पुत्र्याः
पुत्र्याः मम पुत्र्याः पार्श्वे मम पुत्र्याः पार्श्वे यदि भवती पुत्री अत्र पश्यतु पुत्री इति पदम् उपयुज्य वक्तुमिच्छति चेत् पुत्र्याः पार्श्वे यदि पुत्रिका पुत्रिका इति वक्तुमिच्छति चेत् पुत्रिकायाः
पुत्रिकायाः पार्श्वे
किमर्थं तथा पुत्रिका इति पदम् आकारान्तपदं पुत्री इति पदम् ईकारान्तपदम् आकारान्तस्त्रीलिङ्गपदस्य षष्ठीविभक्तिरूपं पुत्रिकायाः द्विचक्रिकायाः स्थानिकायाः यदि पुत्री अस्ति चेत् पुत्र्याः
पुत्र्याः
पुत्र्याः पार्श्वे अनन्तरम् अत्र पश्यतु बहवः इति भवती उक्तवती अत्र बहवः इति पदं पुंलिङ्गे तस्य उपयोगः भवति बहवः अत्र पश्यतु बहवः पश्यतु बहवः मण्डपाः सन्ति बहवः मण्डपाः सन्ति बहवः दर्पणाः सन्ति परन्तु अत्र पाञ्चालिका इति पदमस्ति पाञ्चालिका इति पदं स्त्रीलिङ्गपदम् अतः तस्य विशेषणम् अपि स्त्रीलिङ्गे भवतु इत्युक्ते बह्व्यः उच्चारयतु उच्चारयतु भगिनि कथम् उच्चारणीयं
बह्वः भगिनि किञ्चित् पुनः वदतु
बह्व्यः बह्व्यः इत्युक्ते तत्र हकारः वकारः यकारः
अस्तु अस्तु बह्व्यः हकारः वकारः यकारः
अनन्तरं विसर्गः
अनविसर्गः
उच्चारयतु
बह्व्यः
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 बह्व्यः क्लेशकरमेव बह्व्यः पाञ्चालिकाः सन्ति
सन्ति
पुनः पुनः तदेव वाक्यं वदतु
मम पुत्रिकायाः पार्श्वे बहूनि पाञ्चालिका बहूनि पाञ्चालिका बहूनि नै बह्वः पाञ्चालिकाः सन्ति
उत्तमं तथा तथा वक्तव्यम् अपि च मापिका मापिका अपि करोतु
एषा का एषा मापिका सा का सा मापिका सर्वे विद्यार्थी मापिका उपयोगः कुर्वन्ति
कुर्वन्ति मापिकां मापिकायाः उपयोगं कुर्वन्ति अथवा
मापिकायाः उपयोगं कुर्वन्ति
अत्र पाञ्चालिका इति पदम् उपयुज्य अहम् एकं वाक्यं वदामि अत्र अमेरिकादेशे बाल्यकाले बालिकाः बार्बी पाञ्चालिकया सह क्रीडितुमिच्छन्ति तथा एव बालकाः केन् पाञ्चालिकया सह क्रीडितुमिच्छन्ति
भारतदेशे सर्वे चित्रं पश्यन्ति बालिकाः बालकाः एव पाञ्चालिका न
चित्राणि पश्यन्ति उत्तमम् अनन्तरम् अत्र मापिका मापिका इत्युक्ते साधारणतया वयं गणितशास्त्राध्ययनं कुर्मः चेत् तत्र गणितशास्त्राध्ययने तत्र मापिकाम् उपयुज्य वयं मापनं कुर्मः मापिकया मापनं कुर्मः उत्तमं भगिनि अनन्तरं वंशीसुधा भगिनि
वदतु भगिनि
भवती एव माला अपि करोतु
एषा का सा माला एषा माला सा माला मन्दिरः मन्दिरे
पुष्पमाला
पुष्पमाला स्वामी अहं किञ्चित् प्रयत्नं करोमि
अत्र 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 अहं केवलं किञ्चित् अग्रे गच्छामः अतः शीघ्रं कुर्मः केवलम् अत्र माला इत्युक्ते अनेकानि पुष्पाणि अनेकानि पुष्पाणि एकत्र एकत्र स्थापयित्वा मालां निर्मातुं शक्नुमः इत्युक्ते मालायाः निर्माणं तथा कुर्मः अनेकानि पुष्पाणि एकत्र स्थापयित्वा वयं मालां रचयामः उत्तमम् अनन्तरं दीपिका भगिनी धन्यवादः भगिनी दीपिका भगिनी
सा पुष्पाधानी एषा का एषा पुष्पाधानी पुष्पाधान्याः अन्ते अनेकानि सुन्दराणि पुष्पाणि सन्ति
उत्तमम् उत्तमम् पुष्पाधानी पुष्पाधान्याः निर्माणं केन भवति
ईकारान्त स्त्रीलिङ्गपदम्
इत्युक्ते अत्र अहं किं पृच्छामि चेत् लैक् वाट् इस् इट् मेड् आफ् पुष्पाधान्याः निर्माणं केन भवति
मृत्तिका
मृत्तिका
मीन्स् वाट् भगिनि
मड्
ओके
परन्तु अहं चिन्तयामि काचः काचः इत्युक्ते ग्लास् साधारणतया पुष्पाधान्याः निर्माणं काचकलसेन इत्युक्ते काचेन भवति काचः इत्युक्ते ग्लास् अनन्तरं दूरवाणी करोतु दूरवाणी
एषा का एषा दूरवाणी सा का सा दूरवाणी दूरवाण्याः उपयोगं कृत्वा अहं मित्रा सः सम्बोधयामि सम्यक् अस्ति वा
मित्रेण सह
मित्रेण सह
किमर्थं
स्त्रीलिङ्गम् अस्ति चेदपि तदेव भवति वा मित्रेण सह अथवा मित्र्याः सह
पश्यतु अत्र पश्यतु मित्रम् इति पदं सदा सर्वदा मित्रम् इति पदं नपुंसकलिङ्गपदम् नपुंसकलिङ्गपदं सः इति पदम् उपयुज्य वाक्यं रचयामश्चेत् मित्रेण सह मित्रेण सह तृतीया विभक्ति मित्रं नपुंसकलिङ्गपदम् मित्रम् इत्युक्ते यु केन् यूस् दट् मित्रं बोत् फर् ए गर्ल् फ्रेण्ड् अण्ड् बाय् फ्रेण्ड् मित्रेण सह पुनः वदतु तदेव वाक्यम्
अहं दूरवाण्याः उपयोगं कृत्वा मित्रेण सह सम्बोधयामि
सम्भाषणं करोमि, सम्बोधयामि. उत्तमं. तथा एव अपि च अहं दूरवाण्या मित्रेण सह सम्भाषणं करोमि, तदपि समीचीनमेव. दूरवाण्याः उपयोगं कृत्वा तत्र षष्टिविभक्तेः उपयोगं कृतवती भवती. यदि दूरवाण्या वदामि, दूरवाण्या सम्भाषणं करोमि, तत्तु तृतीयाविभक्तेः रूपम्. यूसिङ्ग् द टेलिफोन्, वित् टेलिफोन्, दूरवाणी, दूरवाणी ईकारान्त स्त्रीलिङ्गपदं, दूरवाण्या, अहं दूरवाण्या सम्भाषणं करोमि, सा दूरवाण्या सम्भाषणं करोति अथवा सम्बोधयति. भवत्याः दूरवाणीसङ्ख्या का इति वक्तुं शक्नुमः. यदि भवती अन्यं प्रश्नं पृच्छति चेत् भवतः दूरवाणीसङ्ख्या का, अथवा यथा भवतः नाम किं, तथा एव भवत्याः दूरवाणीसङ्ख्या का इत्यपि वक्तुं शक्नुमः. अत्र दूरवाणी इति पदमस्ति, परन्तु अहं वदामि चरवाणी, भवत्याः चरवाणीसङ्ख्या का. चरवाणी इत्युक्ते
मोबैल् फोन्.
मोबैल् फोन्, उत्तमं. भवत्याः चरवाणीसङ्ख्या का इति वदामः. अनन्तरं कर्तरि, तदपि करोतु.
सा का, सा कर्तरि, एषा का, एषा कर्तरि. कर्तरीम् उपयुज्य केशकर्तनं कर्तुं शक्यम्.
केशकर्तनं कर्तुं शक्यम्, उत्तमम्. उत्तमम्, धन्यवादः भगिनि. अनन्तरम् अग्रे गच्छेम. अत्र अग्रे किम् अस्ति इति पश्येम शीघ्रम्. अत्र उत्पीठिकायाः उपरि कानिचन वस्तूनि सन्ति. कः कर्तुमिच्छति अधुना? भूमा भगिनी, भवती कृतवती वा, कर्तुमिच्छति वा?
आम् आम्,
करोतु भगिनि.
चित्रं दृष्ट्वा अस्ति अथवा नास्ति इति लिखतु. पुस्तकम् अस्ति, विद्युद्दीपः नास्ति. ओके. घटी अस्ति. पुष्पं नास्ति. उपनेत्रं नास्ति.
उपनेत्रं नास्ति. चित्रे चित्रं परिशीलयतु. चित्रं परिशीलित्वा अत्र किम् अस्ति, किं नास्ति इति वदतु.
लेखनी अस्ति, दूरवाणी अस्ति, पुष्पं नास्ति. सङ्गणकम्
इत्युक्ते कम्प्यूटर्.
सङ्गणकं नास्ति.
कम्प्यूटर् अत्र अस्ति.
कम्प्यूटर् भो एतत् टि वि, दूरदर्शनं.
ओके ओके. दूरदर्शनम् अत्र लिखितमस्ति वा? न, केवलं सङ्गणकम् इति उक्तमस्ति.
सङ्गणकम् अस्ति. शशकः, शशकः स्पेक्स् न,
शशकः इत्युक्ते
शशकः नास्ति.
तत्र चषकः अस्ति भगिनि, पश्यतु.
चषकः,
चषकः इत्युक्ते ग्लास् आर् कप्.
ओ हो हो, ओके ओके.
चषकः,
चषकः अस्ति. पत्रिका अस्ति.
पत्रिका, पत्रिका, पुस्तकमस्ति, पत्रिका, किमपि. अहं केवलं अभ्यासार्थं वदामि, अभ्यासार्थं पृच्छामि. अत्र उत्पीठिकायाः उपरि दन्तकूर्चः अस्ति वा?
दन्तकूर्चः नास्ति.
नास्ति. दन्तकूर्चः इत्युक्ते टूत्ब्रश्. पेषः अस्ति वा? पेषः इत्युक्ते पेस्ट्.
नास्ति.
नास्ति. अत्र पत्राणि वा अथवा पर्णानि सन्ति वा?
नास्ति.
अत्र पश्यन्तु, पर्णानि बहुवचनरूपम् अहं
न सन्ति.
न सन्ति, उत्तमम्. अत्र पर्णानि
न
सन्ति.
पर्णानि न सन्ति, पत्राणि न सन्ति. अत्र मापिका अस्ति वा अत्र? अत्र चरवाणी अस्ति वा? चरवाणी नास्ति. अङ्कनी, अत्र लेखनी अस्ति, लेखनीं पश्यति वा?
अस्ति अस्ति.
लेखन्या किं कुर्मः? लेखन्या लिखामः. लेखन्या लिखामः. अनन्तरम् अङ्कनी अस्ति वा?
नास्ति नास्ति.
अङ्कनी इत्युक्ते कः वदति? अङ्कनी इत्युक्ते उत्तमम्. अङ्कनी इत्युक्ते पुनः वदतु भगिनि.
अङ्कनी इत्युक्ते पेन्सिल्.
पेन्सिल्. अत्र अत्र उत्पीठिका अस्ति, अनन्तरम् आसन्दः अस्ति वा?
आसन्दः दृश्यते.
अहम् एकं नूतनं पदं
ड्रावर्
अस्ति. अनन्तरम् अत्र अहम् एकं नूतनं पदम् उपयुज्य प्रश्नं पृच्छामि. कीलफलकम् अत्र कीलफलकं कीबोर्ड् कीलफलकम् अस्ति वा? कृपया म्यूट् कुर्वन्तु, सम्बडि इस् काफिङ्ग्. कृपया म्यूट् कुर्वन्तु.
कीलफलकम् इस् बोर्ड्.
आं महोदय, कीलफलकम् इत्युक्ते कीबोर्ड्. अत्र सङ्गणकमस्ति, कीलफलकमस्ति.
कीलफलकं च अस्ति.
मूषकम् अस्ति वा भगिनि?
सङ्गणकमूषकं
आधुनिककोष्ठायां मूषिकानि नास्ति.
उत्तमम्. इदानीं पर्यन्तं वयम् अस्ति नास्ति इति नूतनपदानि जानीमः. सो फार् वि लर्न्ड् अस्ति अण्ड् नास्ति. अत्र एकवचने वदामश्चेत् नास्ति, बहुवचने वदामश्चेत् न सन्ति.
न ह्रस्वस्वरं दीर्घस्वरः अस्ति.
अत्र पुस्तक अत्र पश्यन्तु, विद्युद्दीपः नास्ति, दन्तकूर्चः नास्ति, तथा एव अत्र विद्युद्दीपाः न सन्ति. बहुवचने न सन्ति इति वदामः. अग्रे गच्छेम. अत्र अधोभागे किम् अस्ति? अत्र कानिचन नूतनानि पदानि सन्ति, तदपि कुर्मः शीघ्रं. कः कर्तुमिच्छति? अत्र सुचित्रा भगिनी करोति वा?
आं भगिनि. उदाहरणं दृष्टा चित्रस्य अधः पूर्यतु.
अत्र पश्यतु भगिनि, उदाहरणं दृष्ट्वा चित्रस्य अधः. अत्र अधः इति पदम् अव्ययम् इति वदामः. अव्ययं, दट् मीन्स् वेर् एवर् यु यूस् दिस् वर्ड् इट् विल् नेवर् चेञ्ज् इट्स् फार्म्. अन्डिक्लैनबल् इत्युक्ते इट् विल् नेवर् चेञ्ज् इट्स् शेप्. दट् इस् काल्ड् लिङ्गवचनविभक्तिशून्यम् अव्ययम् इति वदामः. चित्रस्य अधः षष्टिविभक्तेः उपयोगं कृत्वा चित्रस्य अधः, चित्रस्य उपरि तथा तस्य पदस्य उपयोगः भवति. वदतु.
एकः प्रश्नः अस्ति, कथं जानीमः अव्ययपदं अस्ति अव्ययपदं नास्ति, कथं जानीमः अहं सर्वे?
कानिचन पदानि अव्ययानि. सम् वर्ड्स् आर् दे बिलाङ्ग् टु द केटेगरि आफ् अव्ययम्. दट् मीन्स् यु दे यु आल्वेस् यूस् दम् एस् दे आर्. They'll never change their form.
Okay.
Just like if you take the word chitram, for that chitram, napumsakalinga padam, you have sapta vibhaktishu, sapta vibhaktaya, apicha, trishu lingeshu, bhavate.
There are some words which are actually avyaya padani that we'll know only by practice.
Yeah. Adhaha. अधः उपरि एतानि पदानि अव्ययानि. चित्रस्य अधः, चित्रस्य अधः स्थितं रिक्तं स्थानं पूरयतु. अत्र पश्यन्तु, स्थितं रिक्तं स्थानं, स्थानम् इति पदस्य विशेषणानि, स्थानम् इति पदस्य विशेषणानि. रिक्तं, that means this rectum and chitrasya adhah sthitam, these two are explaining the word sthanam. Always the adjective explains the noun. Kidrusha sthanam, rectum sthanam. Generally visheshanam namapadasya vivaranam karoti. विशेषणं नामपदस्य विवरणं करोतु. अत्र अग्रिमं पठतु भगिनी, अत्र किं दत्तमस्ति?
सत्यम् अत्र अस्ति.
अत्र अस्ति इत्युक्ते, अत्र अस्ति इत्युक्ते कुत्र?
सस्यस्यं तत्र अस्ति. देर्
अत्र, अत्र अस्ति. अत्र
सस्यस्यं कुत्र अस्ति? सस्यस्यम् अत्र अस्ति.
अत्र पश्यतु भगिनि, सस्यं,
सस्यं,
सस्यं, सस्यं नपुंसकलिङ्गपदं. सस्यम् अत्र अस्ति. अत्र अस्ति इत्युक्ते कुत्र? इत्युक्ते वेर्, कुत्र इत्युक्ते अस्माकं समीपे अथवा तस्य समीपे. सस्यं, सस्यं समीपे अस्ति. अतः किं वदामः?
समीपे, नियर् बै. अत्र इस् नियर् बै, क्लोस् बै, इट् इस् ओवर् हियर्.
उत्तमम्. सस्यम् अत्र अस्ति, अस्माकं समीपे अस्ति, निकटे अस्ति तथा. अनन्तरं वृक्षः, वृक्षं पश्यतु.
वृक्षः कुत्र अस्ति? वृक्षः तत्र अस्ति. वृक्षः दूर अस्ति, सो तत्र.
उत्तमम्, उत्तमम्. वृक्षः दूरे अस्ति, अतः वृक्षः तत्र अस्ति इति वदामः. कारयानम्,
कारयानं कुत्र अस्ति? कारयानम् अत्र अस्ति. कारयानं नज़दीक है, सो
नज़दीक. उत्तमम्.
देवालय कुत्र अस्ति? देवालय तत्र अस्ति. देवालय दूर है, सो तत्र अस्ति.
देवालयः दूरे अस्ति,
दूरे अस्ति.
अतः
वायुः कुत्र अस्ति? वायुः सर्वत्र अस्ति.
वायुः सर्वत्र.
वायुः. देवः कुत्र अस्ति? देवः सर्वत्र अस्ति.
अहम् एकं पृच्छामि, वायुः सर्वत्र अस्ति, देवः सर्वत्र अस्ति, अन्ये किं किं सर्वत्र अस्ति? वायु विहाय अथवा देवं विहाय वाट् एल्स् यु केन् फैण्ड् एव्रिवेर्?
आकाश,
प्रकाशं, सूर्यप्रकाशं, सर्वत्र अस्ति.
ओम् अन्तः सर्वत्र अस्ति.
पञ्चभूतानि
पञ्चभूतानि सर्वत्र अस्ति.
पञ्चभूतानि सर्वत्र अस्ति. अधुना वयं किं कुर्मः इत्युक्ते किञ्चित् एकां कथां पठामः. शीघ्रं शीघ्रं कुर्मः.
मम मित्रं
भगिनी अत्र पश्यन्तु. अस्ति नास्ति एका कथा अस्ति. सर्वेषां पुरतः कथां स्थापयन्तु. शीघ्रं शीघ्रं कथां पूरयामः. पठामः.
ओके. अस्ति नास्ति एकः धनिकः, तस्य विशालं गृहम् आपरम् ऐश्वर्यं किन्तु सुखं नास्ति. सर्वदा चिन्तः. तस्य गृहस्य पार्श्वे एकस्य निधर्नस्य कुटीरं, तत् जीर्णं. तत् निधर्नस्य गृहे धनं नास्ति, प्रतिदिनं भोजनं नास्ति. एकं मध्याह्न
भगिनी भगिनी एकवारं अत्र स्थगयतु. किञ्चित् अत्र किं दत्तमस्ति इति पश्याम. अत्र कः वदति? धन्यवादः भगिनी. अत्र वंशी सुधा भगिनी
वदतु भगिनी. अस्तु अस्तु अहमस्मि भगिनि.
एकम् वाक्यं स्वीकृत्य स्वस्य वाक्यैः वक्तुं शक्नोति वा? अत्र बहु ध्वनिः अस्ति, किञ्चित् म्यूट् कुर्वन्तु. बहु ध्वनिः अस्ति. सतीश् महोदय कृपया किञ्चित् म्यूट् करोतु. किञ्चित् अत्र ध्वनिः अस्ति. अहं म्यूट् करोमि. भगिनी एकमेकं वाक्यं स्वीकृत्य वदतु.
एकः धनिकः, एकः पुल्लिङ्गः, धनिकः पुल्लिङ्गः. एकः धनिकः अस्ति, तस्य विशालं गृहं, तस्य षष्ठी विभक्ति इत्युक्ते धनिकः पार्श्वे विशालं गृहम् अस्ति.
विशालम् इत्युक्ते
विशालम् इत्युक्ते द्वितीया विभक्ति विशालं नपुंसकलिङ्गं. क्षम्यतां, नपुंसकलिङ्गं गृहम् अर्धः संस्कृत पदम् अहम् इङ्ग्लिश् पदम् अहं वदामि. संस्कृत पदम् विशालम् इस् अ बिग् वन्, बिग् हौस्
संस्कृतभाषायां. बृहत्
बृहत् सम्यक् सम्यक् एव सम्यक् एव.
बृहत् गृहं,
बृहत् गृहम् अस्ति. अपारम् ऐश्वर्यम्.
अपारम् इत्युक्ते
अपारम् इत्युक्ते बहूनि ऐश्वर्यं सन्ति.
अत्र अपारम् इत्युक्ते पारम् इत्युक्ते देर् इस् बौण्ड्रि. पारम् इत्युक्ते देर् इस् बौण्ड्रि अण्ड् देर् इस् ए शोर् आर् अ लिमिट् टु दिस्. परन्तु अपारम् इत्युक्ते नो बौण्ड्रि आर् बौण्ड्लेस्.
अपारं योजयन्ति
इत्युक्ते लिमिट्लेस्.
Limitless, right.
Aparam. Param, aparam. Aparam,
aparam. Aishwaryam, aparam.
Atra aishwaryam. Atra pashyam.
Aishwaryam, dhana. Aishwaryam, napunsaka padam. Ityukte dhanam. Ardaha dhanam.
Dhanam. Atra, atra pashyatu. Sadharanataya kim vadamaha chet. Iswarasya bhavam. Somebody is coughing. Can you please mute yourself? Atra aishwaryam ichukte ishwarasya bhavam aishwaryam iti vadamaha. Ishwarena yad dattam tat sarvam aishwaryam. Aishwaryam ichukte kevalam dhanam na. Dhanam अपि च सुखम् आनन्दम् ईश्वरदत्तं सर्वमपि ऐश्वर्यम् एव. अनन्तरं अग्रिमम् अग्रिमं वाक्यं वदतु. किन्तु
किन्तु सुखं नास्ति किन्तु एव बट् इन् इङ्ग्लिश् सुखं नास्ति सुखं सुखं न नास्ति सुखं नास्ति सर्वदा चिन्ता सर्वदा इत्युक्ते
सदा
सदा हा सदा सर्वदा इदं चिन्ता चिन्ता एव सर्वे जानामि जानीमः तस्य गृहस्य पार्श्वे एकस्य निर्धनस्य क्षम्यता निर्धनस्य कुटीरं तस्य गृहस्य पार्श्वे तस्य इत्युक्ते धनिकः षष्ठी विभक्ति गृहस्य गृहस्य इत्युक्ते नपुंसकलिङ्गषष्ठी विभक्ति.
अत्र पश्यतु भगिनि वयं शीघ्रं कुर्मः अतः विभक्तेः प्रसक्तिः मास्तु.
तस्य गृहस्य पार्श्वे गृह समीपे एकस्य निर्धनस्य कुटीर निर्धनस्य इत्युक्ते पूर् पूर् पर्सन् कुटीर गृहमस्ति
इत्युक्ते तस्य पार्श्वे धनं नास्ति
तस्य पार्श्वे धनं नास्ति
तत्
जीर्णं जीर्णम् इत्युक्ते स्पॉइल्ड हाउस
कुटीरम् अत्र अत्र पश्यतु कुटीरं जीर्णं
कुटीरं जीर्णं
अथवा जीर्णं कुटीरम् निर्धनस्य निर्धनः जीर्णकुटीरे वसति
जीर्णकुटीरे वसति
अनन्तरं
निर्धनस्य गृहे धनं नास्ति निर्धनस्य गृहे धनं नास्ति सम्यक् एव प्रतिदिनं भोजनं नास्ति
अनन्तरं कः करोति द्वितीयपरिच्छेदः भूमा भगिनी भवती करोति वा
एकः मध्याह्नः संस्कृतं भाषणं
एकः मध्याह्नः
एकः मध्याह्नः निर्धनस्य भोजनं नास्ति भोजनं न कुर्वति भोजनं तथापि सोषेण गायति गायनं करोति
निर्धनः भोजनं
निर्धनः करोति तथापि सः आनन्देन गायनं करोति एतत् धनिकः पश्यति धनिकः दृष्ट्वा एतत् दृश्यं दृष्ट्वा सः पृच्छति भवतः धनं नास्ति भोजनं नास्ति तथापि सन्तोषः अस्ति किं हौ किं भवतः सन्तोषेण गायनं करोति इति पृच्छति
प्रथमतया पठतु अत्र अत्र एव दत्तमस्ति मम धनमस्ति
मम धनं पठतु ऐश्वर्यम् अस्ति तथापि सन्तोषः नास्ति एतत् किमर्थम् इति धनिकः धनिकस्य प्रश्नं करोति
धनिकः निर्धनं पृच्छति
निर्धनं
पृच्छति भवतः पार्श्वे किमपि नास्ति
कानि न सन्ति
भवतः पार्श्वे किमपि नास्ति परन्तु मम पार्श्वे सर्वमस्ति
ऐश्वर्यं
परन्तु सन्तोषः नास्ति तथा किमर्थम् तथा किमर्थं तत्र तदा निर्धनं
वदति महोदय एषः वसन्तकालः सर्वत्र सौन्दर्यम् अहं तत् पश्यामि गायामि यत् अस्ति तत् अहं पश्यामि अतः सन्तोषेण गायामि भवान् यत् नास्ति तत् पश्यति अतः सर्वदा चिन्तां करोति इति निर्धनः धनिकस्य धनिकं वदति
धनिकं वदति
वदति एषः वसन्तकालः सर्वत्र सौन्दर्यम् अस्ति सन्ति सौन्दर्यमस्ति अहं सौन्दर्यमेव दृष्ट्वा सन्तोषम्
अनुभवामि
सन्तोषम् अनुभवं करोमि
अनुभवामि
परन्तु
भवान्
चिन्ता कुर्वन् सन्तोषं चिन्तां कुर्वसि
भवान् पश्यतु
भवान्
सर्वदा
चिन्ता
भवान् सर्वदा चिन्ता कुर्वन् अस्ति किमर्थं तथा
किमर्थं तथा
अत्र पश्यतु भगिनि अत्र शृणोतु अत्र एकः मुख्यबिन्दुः अस्ति देयर् इस् एन् इम्पार्टेण्ट् पायिण्ट् मुख्यबिन्दुः सः निर्धनः वदति पश्यतु अहं यत् अस्ति तत् पश्यामि अहं मम पार्श्वे यत् अस्ति तत् पश्यामि परन्तु भवान् यत् नास्ति तत् पश्यति दट् इस् द की आस्पेक्ट्
धन्यवादः
अत्र अत्र मम अहं यदस्ति तत् पश्यामि भवान् यत् नास्ति तत् पश्यति तदर्थमेव भवान् सर्वदा चिन्तां करोति
चिन्ताकुलः
चिन्ताकुलः अत्र वसन्तकालः वसन्तकाले सौन्दर्यमेव सर्वदा दृश्यते तत्र वसन्तकालमित्युक्ते वसन्तकालः इत्युक्ते मधुमासः इति अपि वदामः वसन्तकाले नूतनानि पुष्पाणि विकसन्ति फलानि सन्ति
फलानि पुष्पाणि
शाखायां पल्लवाः उत्पद्यन्ते लतासु पुष्पाणि सन्ति अपि च कोकिलाः कूजन्ति सर्वत्र सर्वत्र वसन्तकालसौन्दर्यमेव दृश्यते तदर्थमेव अहं तत् पश्यामि अहं सौन्दर्यं वसन्तकालसौन्दर्यं पश्यामि परन्तु भवान् सर्वदा यत् नास्ति इति चिन्तयित्वा चिन्ता कुर्वन् अस्ति चिन्तां कुर्वन् अस्ति इति सः निर्धनः वदति अस्याः कथायाः नीतिः कः नीतिः का
वदति आनन्दमेव हि वयं दृष्टवन्तम्
अत्र केवलं अस्य कथायाः शीर्षिका अपि अस्ति नास्ति
अस्ति
सदा किम् अस्ति
चिन्तां
वदतु भगिनि
ओके सर्वदा किम् अस्ति फोकस् आन् दट् ऐ एम् ट्रैङ्ग् टु से भगिनि किम् अस्ति
तदेव पश्यतु
तदेव पश्यतु किं नास्ति किं नास्ति
तस्य विषये चिन्तां मा करोतु तस्य विषये चिन्तां मा करोतु केवलं प्रयत्नं करोतु यदि आगच्छति चेत् आगच्छति नो चेत् यदस्ति तद्दृष्ट्वा सन्तोषेण जीवतु
भगिनि वै इस् देर् जीर्णं लैक् यु नो वाट् इस् द काण्टेक्स्ट् आफ् जीर्णं देर्
जीर्णम् अत्र जीर्णम् इत्युक्ते भग्नम् अथवा भ्रष्टं निर्धनस्य कुटीरं नूतनं नास्ति निर्धनस्य कुटीरम् उत्तमं नास्ति तत्तु सः निर्धनः तस्य पार्श्वे धनं नास्ति तदर्थं तस्य कुटीरमपि भग्नं वा रूयिण्ड् अत्र जीर्णमित्युक्ते रूयिण्ड् नाट् इन् ए गुड् कण्डिशन् अहम् एकं वदामि. एकः श्लोकः अस्ति, अनभ्यासे विषं विद्या, अजीर्णे भोजनं विषं, विषं सभा दरिद्रस्य, वृद्धस्य तरुणी विषम्. अत्र प्रथमं वाक्यमस्ति अनभ्यासे विषं विद्या, अजीर्णे भोजनं विषम् इत्युक्ते वि आल् नीड् टु प्राक्टीस्, प्राक्टीस् मेक्स् अस् पर्फेक्ट्. अतः अहं किञ्चित् गृहपाठं प्रेषयामि, सर्वे सम्यक् अभ्यासं कुर्वन्तु, गृहे किञ्चित् किञ्चित् अभ्यासं कुर्वन्तु. तदेव अहं वक्तुमिच्छामि. अधुना समापयामः, कालातीतः अभवत्. सर्वे सर्वेषां नमस्कारः, धन्यवादः.
धन्यवादः.
भवत्याः कक्षा बहु सम्यक् अस्ति भगिनि.
धन्यवादः.